अथ सप्तमः स्कन्धः अथ तृतीयोऽध्यायः नारद उवाच हिरण्यकशिपुराजन् अजेयमजरामरम् आत्मानमप्रतिद्वन्द्वमेकराजन् व्यधित्सत स तेऽपि मन्दरद्रोण्यम् तपः परमदारुणम् ऊर्ध्वबाहुर्नभो दृष्टिः पादाङ्गुष्टाश्रितावलिः जटादिधितिभिरेजे संवर्तार्कैवांशुभिः तस्मिंस्तपः तप्यमाने देवास्थानानि भेजिरे तस्य मूर्ध्नः समुद्भूतः स धूमोऽग्निस्तपोमयः त्रियगूर्ध्वमधो लोकान् अथपद् विश्वगीरितः चुक्षुभूर्नद्युदन्वन्तः सद्विपाद्रिश्च चालभुः निपेतु सग्रहास्तारा जज्ज्वलुश्च दिशो दश तेन तप्ता दिवम् त्यक्त्वा ब्रह्मलोकम् जयुः सुरा धात्रे विज्ञापयामासुर्देवदेव जगत्पते दैतेन्द्रतप्सा तप्ता दिवि स्थातुम् न शक्नुमः तस्य चोप्समम् भूमन् विधेहि यदि मन्यसे लोकान् जावन्नक्ष्यन्ति बलिहारास्तवाभिभुः तस्यायम् किल सङ्कल्पश्चरतो दुश्चरम् तपः श्रूयताम् किम् न विदितस्तवाथापि निवेदितः सृष्ट्वा चराचरमिदम् तपो योगसमाधिना अध्यास्ते सर्वधिष्णेभ्य परमेष्टि निजासनम् तदहम् वर्धमानेन तपो योगसमाधिना कालात्मनोश्च नित्यत्वात् साधयिष्ये तथात्मनः अन्यथेदम् विधासेऽहम् अजथा पूर्वमोजसा किमन्यैः कालनिर्धूतये कल्पान्ते वैष्णवादिभिः इति सुश्रुमनिर्बन्धम् तपः परममास्थितः विधत्स्वानन्तरम् युक्तम् स्वयम् त्रिभुवनेश्वर तवासनम् द्विजगवाम् पारमेष्ठ्यम् जगत्पते भवाय श्रेयसेम् भूत्ये क्षेमाय विजयाय च इति विज्ञापितो देवैर्भगवानात्मभूर्नृप परीतो भृगुदक्षाद्यैर्जयो दैत्येश्वराश्रमम् न ददर्श प्रतिच्छन्नम् बल्मीकतृणकीचकैम् पिपीलकाभिराचीर्ण मेद त्वमांसशोणितम् तपन्तम् तपसा लोकान् यथाभ्रापिहितम् रविम् विलक्ष्य विस्मितः प्राह प्रहसन् हंसवाहनः ब्रह्मवाच उत्तिष्ठोत्तिष्ठ भद्रम् ते तपः सिद्धोऽसि काश्यप वरदोऽहमनुप्राप्तो व्रियतामीप्सितो वरः अद्राक्षमहमेतत्ते हृत्सारम् महदद्भुतम् दंशभक्षितदेहस्य प्राणाह्यस्थिषु सेरते नैतत्पूर्वर्षयश्चक्रुर्न करिष्यन्ति चापरे निरम्बुर्धारयेत् प्राणान् को वै दिव्यसमः शतम् व्यवसायेन तेनेन दुष्करेण मनस्विनाम् तपोनिष्ठेन भवता जितोऽहम् दितिनन्दन ततस्त आशिषः सर्वा ददाम्यसुरपुङ्गव मर्त्यस्य ते अमर्त्यस्य दर्शनम् नाफलम् मम नारद उवाच इत्युक्त्वादिभवो देवो भक्षिताङ्गम् पिपीलकैः कमण्डुलुजले नौक्ष दिव्ये नामोघराधसा स तत्कीचकबल्मीकात् स ओजो बलान्वितः सर्वावयवसम्पन्नो वज्रसङ्घनन युवा उत्थितः तप्त हेमाभो विभावसूरिवैधस स निरीक्ष्याम्बरम् देवम् हंसबाहमवस्थितम् ननाम शिरसा भूमौ तद्दर्शन महोत्सवः उत्थाय प्राञ्जलिः प्रह्व इक्षमाणो दृशा विभुम् हर्षाश्रु पुलकोद्भेदो गिरा गदगदया गृणात् हिरण्यकश्यपुर्वाच कल्पान्ते कालसृष्टेन योन्धेन तमसावृतम् अभिव्यलग्जगदिदम् स्वयम् ज्योतिः स्वरोचिषा आत्मना त्रिवृता चेदम् सृजत्तव तिलुम्पति रजः सत्त्वतमो धाम्ने पराय महते नमः नम आद्याय बीजाय ज्ञानविज्ञानमूर्तये प्राणेन्द्रिय मन बुद्धि विकार व्यक्ति मीयुषे त्वमीशिषे जगतस्तस्तुषश्च प्राणेन मुख्येन पतिः प्रजानाम् चित्तस्य चित्तेर्मन इन्द्रियाणाम् पतिर्महान् भूतगणाशयेशः त्वं सप्ततन्तुं वितनोऽसि तन्वा त्रय्या चतुर्होत्रकविद्यया च त्वमेकयात्मात्मवतामनादिरनन्तपारः कविरन्तरात्मा त्वमेव कालो अनिमिषो जनानाम् आयुर्लवाद्यावयवैः क्षिणोषि कूटस्थयात्मा परमेष्ठ्यजो महान् त्वम् जीवलोकस्य च जीवयात्मा त्वत्तः परम् न परमप्यनेजदेजच्च किञ्चिद् व्यतिरिक्तमस्ति विद्यः कलास्ते तनवश्च सर्वा हिरण्यगर्भोऽसि बृहत्त्रिपृष्ठः व्यक्तम् विभो स्थूलमिदम् शरीरम् जैनेन्द्रियप्राणमनोगुणास्त्वम् भुङ्क्ते स्थितो धामनि पारमेष्ठे अव्यक्तयात्मा पुरुषः पुराणः अनन्ताव्यक्तरूपेण जैनेदमखिलम् ततम् चिदचिच्छक्तियुक्ताय तस्मै भगवते नमः। यदि दास्यस्यभिमतान् वरान् मे वरदोत्तम भूतेभ्यस्त्वद्विसृष्टेभ्यो मृत्युर्मा भुन्मम प्रभो नान्तर्बहिर्दिवा नक्तम् अन्यस्मादपि चायुधैः न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि व्यसुभिर्वा सुमद्भिर्वा सुरासुरमहोरगैः अप्रतिद्वन्द्वताम् युद्धे ऐकपत्यम् च देहिनाम् सर्वेषाम् लोकपालानाम् महिमानम् तथात्मनः तपोयोगप्रभावाणाम् यत्र रिष्यति कर्हिचित्। इति श्रीमद्भागवते महापुराणे परमहंस्याम् संहितायाम् सप्तमस्कन्धे हिरण्यकशिपोर्वर्याचनम् नाम तृतीयोऽध्यायः।